तीर्थ विप्राणां साध्वीनां च सतामपि वेदानां च न कर्तव्या निन्दा श्रव्या न च क्वचित्।